तेजस्विनावधीतमस्तु मा वेद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ नमस्ते।
धन्यवादः भगिनी। गृहपाठं पश्यामः। सरलमेव आसीत् खलु, किमपि क्लेशः नास्ति इति मन्ये। हेमाङ्गी भगिनी पठतु।
नमस्ते महोदय। यथा उदाहरणं ल्यबन्तरूपस्य उपयोगेन वाक्यद्वयं योजयित्वा वदत। उदाहरणार्थं छात्रः विद्यालयं प्रविष्टवान् पठितवान्। छात्रः विद्यालयं प्रविश्य पठितवान्। त्वं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। त्वं सर्वधर्मान् परित्यज्य मामेकं शरणं व्रज। सञ्जयः केशवार्जुनयोः संवादं संस्मरति दृश्यति। सञ्जयः केशवार्जुनयोः संवाद संस्मृत्य हृष्यति।
अर्थं जानाति वा?
हृष्यति इस् ही गेट्स् हेपी और् ही फील्स् हेपी।
सन्तोषम् अनुभवति।
दुर्योधनः आचार्यम् उपसङ्गच्छते ब्रवीति। दुर्योधनः आचार्यम् उपसङ्गत्य ब्रवीति।
अत्र उपसङ्गम्य अस्ति।
उपसङ्गम्य ओके
गम्य ब्रवीति।
ओके ओके फाइन।
ब्रवीति जानाति वा?
व्हाट इज दैट महोदय?
ब्रवीति किम् अस्ति जानाति वा?
ब्रवीति इज वदति।
ब्रू धातु उभयपदी अस्ति खलु?
आम्।
सो ब्रवीति इस् परस्मैपदी, ब्रूते आत्मनेपदी अस्ति। ब्रवीति ब्रूते समानमेव।
अस्तु, धन्यवादः।
धन्यवादः भगिनि।
या सो ऐ जस्ट् वाण्टेड् टु टेल् यू महोदय दट् वेन् ऐ वास् डूङ्ग् दिस् होम्वर्क् सो इट् वास् टु बी फ्रेङ्क् इट् वास् डिफिकल्ट् फार् मी बिकास् ऐ टुक् अ लाट् आफ् रेफरेन्स् फ्रोम् इण्टर्नेट् बट् वेन् ऐ डिड् इट् वित् like in the last class it was okay while doing with everyone else but when I did it on my own it was little difficult for me.
Okay, chinta mastu. That see, as long as we know how to use the tools to get the answers or look things up, I think that is fine.
Okay.
You keep practicing, it'll be easier. And there are some exceptions are there, like this upasangachate. I think because maybe it's Atmanepadi with the upasarga, there is a slight change.
Okay. Astu mahode, dhanyavaad.
अग्रे भूमि भगिनी अस्ति वा?
आं महोदय, नमस्कारः.
नमस्ते भगिनि.
योगी द्वाराणि संयच्छति मनः हृदि स्थापयति. योगी द्वाराणि संयम्य मनः हृदि स्थापयति. प्राणं भ्रुवोः मध्ये आवेशयति ध्यानं करोति. प्राणं भ्रुवोः मध्ये आवेश्य ध्यानं करोति. पूर्णस्य पूर्णम् आदत्ते पूर्णम् एव अवशिष्यते. पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते. मानवः स्वकर्मणा देवम् अभ्यर्चति सिद्धिं विन्दति. मानवः स्वकर्मणा देवम् अभ्यर्च्य सिद्धिं विन्दति.
धन्यवादः भगिनि. षष्टमवाक्यं किञ्चित् वदति वा, किम् अस्ति? प्रयत्नं करोतु.
प्राणं भ्रुवोः मध्ये आवेशयति ध्यानं करोति. प्राणं भ्रुवोः मध्ये आवेश्य ध्यानं करोति. सो इट् इस् भ्रुवो मीन्स् बिट्वीन् टु ऐब्रोस्.
सम्यक्.
सो
षष्टि भ्रुवोः षष्टि
द्विवचने षष्टि विभक्ति. सो pran is there between two eyebrows, and then by keeping pran there dhyanam karoti.
No. And adatte is dadati janati kalu. So this is adatte means that dadati is give, adatte is like take.
पूर्णम् आगत्ते पूर्णम् एव अवशिष्यते. सो वेन् देर् इस् अ पूर्ण इफ् यु गिव् फ्रोम् होल्सम् इफ् यु गिव् होल्सम् स्टिल् देर् विल् बि पूर्ण
फिलोसफि अस्ति किञ्चित्
पूर्णस्य पूर्णम् आगत्ते.
धन्यवादः भगिनि.
धन्यवादः.
दिस् श्लोका इस् देर् इन् मन्त्रपुष्पाञ्जलि खलु महोदय? पूर्णस्य पूर्णमादाय पूर्णमेव अवशिष्यते.
अहं सम्यक् न जानामि भगिनि.
अस्तु.
प्रायः उपनिषद् मध्ये अस्ति चिन्तयामि.
फ्रोम् उपनिषद् सिन्स् ऐ नो दट् पूर्णस्य पूर्ण.
ओके. अनिता भगिनी करोतु अग्रे.
त्वं मम उपदेशं विमृश यथेच्छं कुरु. त्वं मम उपदेशं विमृश्य यथेच्छं कुरु. योगी निश्चलम् उपविशति योगम् आचरति. योगी निश्चयम् उपविश्य योगम् आचरति. स्वकर्माणि मनसा संन्यस्यन्तु सुखं जीवन्तु. स्वकर्माणि मनसा संन्यस्य सुखं जीवन्तु.
आं भगिनि.
ज्ञानम् उपाश्रयति ईश्वरस्य सार्थम्यं प्राप्नोति. ज्ञानम् उपाश्राय ईश्वरस्य साधर्म्यं प्राप्नोति.
धन्यवाद भगिनी.
उपाश्राय इज राइट महोदय.
एकनिमिषं भगिनि.
उपाश्राय उपाश्रय श्रीनायक
उपाश्रित्य
उपाश्रित्य
शक्त्या. एकनिमिषम्. There is some background noise coming. Can everyone please mute? Dhanyavada. So Anita Bhagini, Navamam Janatyava, Kinchit Vadatu.
Tvam Mama Upadesham Vimrishya Yathecham Kuru. Understand my upadesha, or like vimrsha means analyze
and consider then, or and do as you please. Yathecham Kuru. Kuru.
Right. Okay.
Okay. And the 12th one is Bhagini.
Eighth one, what is the correct answer? Abhyarchati.
Abhyarchya.
Abhyarchya. Okay.
So, Abhyarchya. So, the T will go and the Archya Bhavishya. Because it's Lyabanta.
Okay.
And Vimrishya is the ninth one. Upavishya. Samnasya. Okay, that's okay. Okay, dhanyavada bhagin.
Then Mahodaya, for this 12th one, Upashraya, Upashrutya, right? Upashrutya.
Upashrutya, Jnanam Upashritya Ishwarasya Sadharmyam Prapya. Agre Balakrishna Mahodaya Kuruti.
Namaste Mahodaya.
Namaste. 13th.
Dashamam?
No, sorry, I was late.
I just joined.
Okay, we'll come back to you then, Mahodaya.
No problem. I can start you.
Trayodasham, number 13.
13, okay. Kshetrakya jnanam vijanati ishvara भावं प्राप्नोति. क्षेत्रक्षेत्रज्ञ ज्ञानं विज्ञाय ईश्वरभावं प्राप्नोति. पार्थः कृष्णं शिरसा प्रणमति, कृताञ्जलिः वदति. पार्थः कृष्णं शिरसा प्रणम्य वदति. योगी प्राणं मूर्धि आधत्ते योगं आचरति. योगी प्राणं मूर्धि आदाय योगं आचरति. ज्ञानी इन्द्रियाणि संहरते, मनः धैर्यम् आप्नोति. ज्ञानी इन्द्रियाणि संहृत्य, मनः धैर्यम् आप्नोति.
Samyak Mahodaya. For number 15, it is Adhaya. Not Adhaya is for the Adhati.
Adhaya. I have written Adhaya. Adhaya. Okay. Adhati, no? Yes. Sorry, I don't know.
So, Pranamati, Pranamya, we have seen. Vijanati, Vijanya. Okay. I think we did quite a bit of exercises last class also. So, hopefully. Vadatu Bhagini.
11th one, what is the answer? Swakarmani Manasa.
Samnansya.
Samnansya.
Sammasti kalu samnansya.
Samnansya. Astu ma'am.
For
so
the ninth
if you
one,
take the antu out, the last antu out, it will be like that. Samnansya.
Samnansya. Astu ma'am.
A little difficult to say that, but Anya Prashna Astiva?
Mahodaya. For the ninth one, what is the Pratibhadikam for Vimrish?
So that is Mrish. Mrish and Vimr V Upasarga. Mrish.
Mrish. Okay.
So Vimrishya is usually like cautious or something like that. Be careful. But Vimrishya is like you consider or you think about, ponder Vimrishya.
And is it in Parasmipade or Atmanipade? Like for the...
Which one, Bhagini?
The same one, Mrush. It's like Mrushati or Mrushate or how does it go?
It's Mrushati, I think. Ek minute, mister. Check. Mrushati, praya. Mrushati.
धन्यवाद
ओके अग्रे सरामा वा I lost my... Okay, so hopefully you read through all this just to get an idea of the Tvant Rupam and the Lyabanta. We'll do a couple of these also, and before we move on, Jaya Bhagini Karotu Pratama Dvayam.
The 16th one or the next one?
Here the number 4. This was not part of homework, but we'll just do a couple of these.
Yeah, okay. should I read the red line thing or
patatu
okay tat sam samkhyakam गीताश्लोकं परिशील्य आवरणे स्थितस्य धातोः क्त्वान्तेन ल्यबन्तेन वा रूपेण रिक्तस्थानानि पूरयत.
अर्थं जानाति खलु सर्वे?
सो दिस् इस् लैक् अ गीताश्लोक, वी हव् टु फिल् इट् वित् लैक् अ ल्यबन्त और् क्त्वान्त, राइट?
Labanta or Tuanta of the words given in the brackets there. So, Grihe Parishilayatu, for now we'll just try to get the words. Pratama Dvayam Karotu Bhagini.
Duryodhanaha Acharyam Upasangamya Vachanam Abravit. केशवस्य वचनं श्रुत्वा किरीटी भीतवान्.
अब्रवीत् जानाति वा भगिनि?
सेयिङ्ग् रैट् टेलिङ्ग्
लकार कः?
अब्रवीत् इस् लङ् लकार.
लङ् लकार सम्यक्. ब्रवीति दृष्टवन्तः खलु? ब्रवीति अब्रवीत्.
अब्रवीत्
धन्यवादः भगिनि.
धन्यवादः.
अग्रिममपि करोतु तृतीयं.
अहं वैश्वानरः भूत्वा चतुर्विधं अन्नं पचामि.
सम्यक्, धन्यवादः भगिनि. सर्वे पश्यन्तु, गृहे कुर्वन्तु च. इट्स् मोर् आफ् द सेम्. सो ऐदर् पिक् द त्वान्तरूपम् आर् द लबन्त एण्ड् ट्रै टु अण्डर्स्टाण्ड् द सेण्टेन्स्. इफ् यु वाण्ट् यु केन् लुक् एट् द श्लोक दट् इस् गिवन् देर्. So look at it and see where it fits in there. Slowly we can, you know, start delving deeper. Usha Bhagini?
There are some errors in the numbering, like the above one, fifth one you have given for the homework. I put it in the group because there are some errors, like for three numbering.
Bhagini, I saw that. Yes. Is it? I think it might be a mistake in your book, Bhagini, because I checked and it's given the right one in what I have and what is shown here. So, do you have an older version?
No, I bought it online, the newer version. So, I'm not sure it's only my book or someone else also have that. Can you please scroll down a little bit? So,
which, where, Bhagini?
The fifth one, yeah. So you have the correct one. See, the 1135, we have 7.13. There is 1.37 and we have 1.34. So there are some mistakes in the numbering. So I'm not sure for the fourth one, it's the same or it's going to be different.
So this one, I think, we had seen, I think, in the last class. Ekadasha adhyayasya drishtavanta kalu sagad gadam bhita bhitaha parataha. Dhanyavada Bhagini. Usha Bhagini karutu. Namaste. एकनिमिषम्. नवम आरभ्य करोतु.
भीष्मः सङ्गं शङ्कं भीष्मः शङ्कं न जानामि महोदय.
धातु सो दट् इस् धमति
धमति
दट् लकारे धमति सो द्वान्त विल् धात्वा
ध्वात्मा
सो भीष्मः शङ्खं ध्वात्वा हर्षं जनयति सो ब्लोइङ्ग् द शङ्ख
ध्वात्वा हर्षं जनयति. धन्यवादः. माधवः स्यन्दने स्थित्वा पाञ्चजन्यम् अधमत्.
सम्यक्. सा धातु जानाति खलु लट् लकारे किम् अस्ति?
तिष्ठति.
तिष्ठति, उत्तमम्. अग्रिममपि करोतु.
योधाः प्राणान् त्यक्त्वा युद्धार्थम् अवस्थिताः.
सम्यक्. धन्यवादः.
धन्यवादः महोदय.
Okay, so here also it was similar. You can look at the, you know, the Tvanta Rupam or Lebanta and point it out. Agre Saramaha. Prashnaha Santiva? Atra? No, Chit, Agre Saramaha. Page 179.
How many total dhatus are there?
There are a lot. I think thousands.
Oh, really?
Yeah.
Around 2,200.
2,000 plus are there.
Okay. Dhanyavaad.
Yeah. Great. वैभवी भगिनी करोतु द्वितीयं तृतीयं च.
आं महोदय. विच् पेज्?
पेज् 178. यु काण्ट् सी द स्क्रीन् भगिनि?
या, ऐ केन् सी. Second and third?
Yeah.
Balakah patishyati pustakam svikarishyati. Balakah pathitum pustakam svikarishyati. Shishuhu chalitavan prayatnam krutavan. Shishuhu chalitum prayatnam krutavan.
See, it is chalitavan, Bhagini. Shishuhu chalitavan. So it will be, what will be the tumun? Chalitavan.
Chalitum?
Chalitum. Shishuhu chalitum prayatnam krutavan.
Shishuhu chalitum prayatnam krutavan.
Agrimam api.
Mataraha archishyanti mandiram gamishyanti. Mataraha अर्चितुं मन्दिरं गमिष्यन्ति. Should I do the next one?
पुनः वदतु भगिनि.
मातरः अर्चितुं मन्दिरं गमिष्यन्ति. अर्चयितुं.
Both you can do. Architum, archayitum. Agrimam api karotu, Bhagini.
Bhrata jalam apibat, pakashalam agachat. भ्राता जलं पातुं पाकशालाम् अगच्छत्।
हा सम्यक्, उत्तमं भगिनि। जानाति वा अभिपत् अगच्छत् लकारः?
आम्
कः लकारः?
अभिपत् इस् लङ् लकार।
लट् लकारे किम् अस्ति?
पिबामि, पिबति।
हा पिबति, उत्तमं भगिनि, धन्यवादः।
धन्यवादः।
सुबोध महोदय अग्रे करोतु।
ते वैज्ञानिकाः भविष्यन्ति, सम्यक् पठिष्यन्ति। ते वैज्ञानिकाः भवितुं सम्यक् पठिष्यन्ति। सैनिकाः युध्यन्ते, रणाङ्गणं गच्छन्ति। सैनिकाः योद्धुं रणाङ्गणं गच्छन्ति। वक्ता अवदत् सभाम् अगच्छत्। वक्ता वदितुं सभाम् अगच्छत्।
महोदय, can you speak louder? I can't even hear you.
Oh, sorry. Can you hear me now?
Who were you asking, Bhagini?
Subodh Mahodaya. Yeah, okay. I'm able to hear you, Mahodaya. Subodh, I didn't hear what he said for Saptama.
Bhavati Karotu.
Sainikaha. युध्यन्ते, रणाङ्गणं गच्छन्ति। सैनिकाः योद्धुं रणाङ्गणं गच्छन्ति।
नवमं करोतु।
युवत्यः गच्छन्ति, मञ्चे तिष्ठन्ति। युवत्यः गन्तुं मञ्चे तिष्ठन्ति।
ऐ थिङ्क् इट् गायन्ति
सर्, गायन्ति, गातुं, गीतं, गायन्ति, गायन्ति। युवत्यः गायन्ति, मञ्चे तिष्ठन्ति। युवत्यः इस् इट् गीतम् आर् दिस् इट् शुड् बि I don't know.
It should be gatum.
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 Gatum. Yeah. Yuvatyaha gatum manche tishtanti.
Dhanyavada Bhagini.
Okay.
Okay. Atrapi samanameva. Any doubts in this? I think a couple of you... See, for likhati and lekishyati, it will be lekhitum, not likhitum, lekhitum. And milati will be melitum. I think those were a couple of you, I think, had militum and likhitum or something like that. It is lekhitum and melitum. I think otherwise it's all easy. Yeah. Okay, so the other part was to read two chapters. Sarve patitavanta va? Attaha, yattaha, and sambodhan. It's fairly simple. We have done this in detail from level 1 also. Attaha, yattaha. Any questions? Prashnaah nasti. Okay, let's read the Avadheyam. Balakrishna Mahodaya patatu Avadheyam.
Avadheyam
अत्र अवधेयम् अत्र वाक्येषु कार्यवाक्यं प्रथमम् उक्तं कारणवाक्यं च अनन्तरं यतः इति अव्ययस्य प्रयोगः कारणवाक्येन सह कृतः अस्ति. उदाहरणम् अहम् उष्णजलं पातुम् इच्छामि यतः अद्य शैत्यम् अस्ति.
सम्यक् महोदय. उदाहरणवाक्यम् अतः उपयुज्य वदतु.
अतः
यु केन् से द सेम् सेण्टेन्स् यूसिङ्ग् अतः खलु.
ओके.
सी यतः इस् लैक् the English equivalent would be because, you can say. Attaha is so therefore.
Aham ushnajalam paatum ichhami ataha adya chaityam asti. Will it come earlier?
So you have to say the first the second part first. So that is what is given in the avadeyam. So adya shaityam asti ataha aham ushnajalam paatum ichhami.
Okay.
Avagatam va?
Adya shaityam asti aham ushnajalam paatum.
Adya shaityam asti ataha aham ushnajalam paatum ichhami.
Okay.
So one is because, you are having a because. So, yeah. Hopefully everybody remembers that. Atrapi patatu mahodaya.
पञ्चवस्त्राणि धृतवान् यतः तत्र शैत्यम् अस्ति. कृष्णः गीताम् उपदिष्टवान् अर्जुनः विषण्णः. कृष्णः गीताम् उपदिष्टवान् यतः अर्जुनः विषण्णः.
सो जस्ट् यू हैव टु यूस् द यतः. सो द मेन् थिङ्ग् यु हैव टु रिमेम्बर् महोदय इस् अतः यतः द सेण्टेन्स् कन्स्ट्रक्षन् विल् चेञ्ज् इट् विल् बिकम् रिवर्स् एस् लाङ्ग् एस् यु
अद्य शैत्यमस्ति अतः अहम् उष्णजलं पातुम् इच्छामि जस्ट् लैक् दट्.
So it is cold today.
Yes.
Okay. It is cold today, therefore I want to drink hot water. And the other way it is, I drink hot water because it is cold. So that is the difference. Dhanyavada Mahodaya.
Dhanyavada.
Okay, and here it is Sambodhana, which we have again seen. So just you have to read this and get used to it. There is a little different, like pita, pitaha, get familiar with that. Guruhu, guru, munihi, mune, like that. So any questions on those two? No chet agre saramaha. एकां कथां पश्यामः.
I have a question, actually not a question, Maurya, but when I try to make sentences using only one noun, say any name like Ramah or Akaranta, Ikaranta, any, and when I try to make seven sentences using seven vibhaktis, that time I was facing problem more there. Like if I choose Ramah, like for Prathama, Ramah asti, for Dvitiya, I can say Ramam Pashyami. Then Tritiya, when using Tritiya, I can say Ramena Saha or Ramena Vina. But while making a sentence using Saptami, it was little bit difficult for me. Because, I mean, I feel there is a limitation, for me, like in or on Ramah. So how to create sentences, that I'm not sure.
You can say Rame Shakti hi asti. Skill or quality you want to say, it is in Rama.
Okay, so usually, but I cannot say Rame Bubuksha asti.
No, not Bubuksha. Rame Bhakti hi asti. Mama Rame Mama Bhakti asti.
Okay, because I could make very limited sentences, so that is why I'm concerned. Is it not?
Yeah. I mean, it all depends on what you want to say, right? So for Chaturthi, you would use it with Dadati, a set of things you would use it.
Yeah.
So, yeah.
Okay.
It'll come, you're doing good. That is how, you practice for all the vibhaktis, what you can use. So then it will come.
Yeah.
Practice only.
Because if I want to say Utpitika Yam Ghati Asti, that is okay. Like there is something on Utpitika, but Rame or Ita Yam, if I want to say something, that is really difficult for me to construct the sentence.
That's why like any quality Rame Buddhi Asti. You can start with simple things like that.
Okay. Okay, fine. Thank you, Mahoday.
Dhanyavaad.
Apicha, you have to read stories, Bhagini. Start reading. When you read, you get an idea. It comes by reading and practice.
Yes.
So you try to recognize, right? Then you can. You have to do a lot of reading, though. Then at least you will appreciate and you can start with it. So, Chandamama and whatever, right? You have a lot of resources. You can start reading Katha. So that's all. Okay. So we can do this story now, which has Avayani. Anita Bhagini, Shruyateva, Arambam Raktavarnasya Arabhya.
Aam Bhagini, Garva Bhanga, Etam Katham Uchaihi Patata. Matsya Deshasya Maharajaha Virata, Pandavaha Agnata Vasa Samaye, Virata Rajasya Asthane, Prachanna Rupena Asa. Trigartha Nareshaha Susharma Virata Rajasya Gosampattim Apahartum Tatra Agachati. Virataha Yuddhartam Sannadhaha Bhavati. Pandavaha Api Tena Saha Yuddhartam Gachanti. Pandavanam Sahayena Virataha युद्धे जयं प्राप्नोति सः त्रिगर्तं गच्छति
संक्षिप्तरूपेण वदतु किम् अवगतं भगिनि
आं भगिनि मध्यदेशस्य महाराजः विराटः विराट इस् दि किङ्ग् आफ् मध्यदेश पाण्डवः अज्ञातवाससमये विराटराजस्य आस्थाने प्रच्छन्नरूपेण आसन् मीन्स् पाण्डवास् वर्रिन् अज्ञातवास देवरिन् लैक् विराटराजस्य आस्थान वितौट् अदर्स् गेटिङ्ग् टु नो दट् देवर् लैक् पाण्डव त्रिगर्त नरेश ऐ लैक् गेस् लैक् त्रिगर्त इस् अगेन् सम् लैक् प्लेस् मे बि सो त्रिगर्त नरेश मीन्स् किङ्ग् आफ् त्रिगर्त his name is Susharma so he is like jealous of all the like go sampatti that Virata has Virata rajasya go sampattim apahartum he wants to like steal the go sampatti that Virata raja has so in order to do that Virata yuddhartam sannaddha bhavati so he prepares himself for like for a war with Virata and Pandavaha api tena sah yuddhartam gacchati Pandavas will also go with him for fighting Pandavanam sahayena Virata yuddhe jayam praptati Pandavas will like support Virata because of which Virata raja wins or like he like defeats Trigartha Naresha sa Trigartham gacchati so Susharma goes back to Trigartha
dhanyavada bhagini apahartum tumunnasti atra saptami vibhakti asti asthane right yudde dhanyavada bhagini
dhanyavada
भूमी भगिनी अग्रिम परिच्छेदं पठतु
आम् अत्रान्तरे कौरवाः ससैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति उत्तरः वदति यद्यपि अहं युद्धे कुशलः तथापि इदानीं न गच्छामि यतः इदानीं मम सारथिः नास्ति यदि सारथिः अस्ति तर्हि अहं युद्धार्थं गमिष्यामि दुर्योधनं भीष्मं कर्णं द्रोणं च विद्राव्य गोधनं रक्षयामि इति रक्षिष्यामि इति
भविष्यत्काले अस्ति सारथिः
अत्रान्तरे कौरवाः ससैन्यं विराटनगरम् आगत्य गोधनम् अपहरन्ति सो आगत्य इस् ल्यबन्त प्रत्यय अत्रान्तरे इस् सप्तमी विभक्ति गोधनम् अपहरन्ति इस् प्रथम पुरुष बहुवचनं तदा गवाध्यक्षः रक्षणाय राजकुमारम् उत्तरं निवेदयति सो गवाध्यक्षः इस् अ नेम् नाम रक्षणाय इस् अ चतुर्थी विभक्ति राजकुमारम् उत्तरं उत्तर राजकुमार उत्तर निवेदयति इस् he is doing the nivedan to uttar rajkumar uttar uttarah vadati uttari saying yadyapi is avyay aham yuddhe kushalah even though i am I am very kushal, so very good at the yuddha. Yuddha is saptami vibhakti. Tathapi is avyay. Idanim na gachami. I am not going there. Yatah idanim mama sarathihi nasti. Yatah is because idanim here, mama is mine, sarathihi nasti. I don't have any sarathi.
Idanim is now, right now, bhagini. Idanim is right now. Idanim, right now, mama sarathi.
Right. Okay. So right now I don't have any sarathihi. Yadi sarathihi asti tarhi aham yuddhartham gamishyami. So yadi and tarhi, they are avyay. So if and then, so yadi sarathihi asti, if there is a sarathi, tarhi, then only aham yuddhartham gamishyami, then only I will go to the yuddha. I will go for the yuddha artham. So go. I will go for the battle. Duryodhanam, Bhishmam, Karnam, Dronam, Cha Vidravya, Godhanam, Rakshi, Shyami, Iti. So these all are in Dvitiya Vibhakti. They all will protect the Godhan. Iti is, he's also saying, Iti is also avyay. He is saying that they all will protect the Godhan.
Aham yuddhartham gamishyami, duranodhanam bhishmam karnam dronam cha vidravya ityukte chase away. They will drive them, he will drive them away, and godhanam rakshishyami. I will protect the cow by driving all of them away. So they are the one who will be, who will be coming to get the cows. Like Gavadhyaksha means here, maybe the he is in charge, whoever Adhyaksha, president of all the Godhana means all the cattle head, maybe he is called Gavadhyaksha. Tatra. Nama, Namakshiraya. Dhanyavada bhagini.
So I didn't get understand the meaning for Vidravya yet.
Dravati. So even here it's like chasing away. Dravati is like liquefying, like that also you can use, but here it's dravati, vidravya is a upasarga. He will chase them away. Chase them away and godhanam, all of them, tari aham yuddhartam gamishyami, I'll go to the battle, then I'll duryodhanam, bhishma, karnam, dronam, all of them, I will chase all of them. And I will save our cattle. That's what it is.
Oh, okay. I understand. Yeah. Dhanyavad. Bhagini.
Hey, Vangi Bhagini, Agrima Parichayadam Patatu, Tada Arabhya.
Tada Sairandhi Vadati, Atra Bruhannala Ya Asti, Purvam Sa Arjunasya Sarathihi Asit, Tam Nayo Iti. ततः सा एव बृहन्नलां तत्र आनयति बृहन्नला वदति गीतं नृत्यं वाद्यं वा करिष्यामि सारथ्यं कथं करिष्यामि इति उत्तरः वदति गायकः नर्तकः च अनन्तरं भव इदानीं तु सारथिः भव इति सो सैरन्ध्री वदति that you take Bruhannala with you because he used to be Arjunasya Sarathi. So take her with you. Then Tataha Sa Eva Bruhannala Tatra Anayati. So she only gets Bruhannala there. Then Bruhannala Vadati. So Bruhannala says Gitam Nrutyam Vadyam Vakarishami. So I can only do Gitam Nrutyam and Vadyam. Sarathyam Katam Karishami. So how do I do Sarathyam? That's what Bruhannala says. Then Uttaraha says, Rajkumar Uttaraha says that Gayan Gayakaha Nartakaha Cha Anantaram Bho. So do all the sangeetam and dancing later on. First you be my sarathi.
Purvam sa, purvam means before. Purvam sa Arjunasya sarathi asit. Before she was Arjuna's sarathi. Okay.
So here Bhagini Atra Bruhannala Ya, what is this Ya in between Asti and Bruhannala?
Yasa. Yasa, who was? Yasa, they go together, right? I think Yasa. We did it in Pratama Varge Apikrutavanta.
The one who
Yasa, Yasa, Yattat. Yeah, okay. One who and that, she. Yeah.
Okay, okay. Sa. अस्तु
धन्यवादः
भगिनि. Can we say the idanim also like avyayani or no? Because it
doesn't change. Idanim. आम् अव्ययरूपेण अवयरूपेण एव उपयोगं कर्तुं शक्यते.
ओके, बिकास् इट् वास्
इदानीन्तन. इदानीन्तन दिने इट् केन् बि यूस्ड् बट् यूज्वलि like nowadays also yudanim tana dine also you can use like nowadays you use like that also but usually avyaya aktavarne daktam nasti parantu avya rupena bahu saleshu avya rupena eva dastamaya. Agrimam jaya bhagini patativa tata arabhya srishateva
namo namah. ततः बृहन्नला रथम् आरुह्य अश्वं प्रेरयति किन्तु युद्धभूमौ विशालं कुरुसैन्यं दृष्ट्वा उत्तरः हतोत्साहः भवति. सः वदति मम पिता त्रिगर्तदेशं गतवान् अस्ति सर्वामपि सेनां सह नीतवान् अस्ति. अहम् एकः बालः एतान् अस्त्रकोविदान् प्रतिरोद्धुं न शक्नोमि. बृहन्नले निवर्तस्व इति. So then Brihannala ratham arushya is levanta arohati is the kriya padam. Arushya, he went onto the chariot and he ashvam prerayati, he controlled the horses, a horse. Kintu yuddha bhuma vishalam kurusanyam drishtva. So, but seeing the, in the battlefield, seeing the sainyam, all the sainyam, drishtva, tvanta pratyaya, uttaraha hatotsahaha bhavati. Uttaraha hatotsahaha kimatham.
So he gets like utsa means enthusiasm, right? So he loses all the enthusiasm.
Okay,
it's kind of intimidated, okay. You can say.
Okay, loses enthusiasm. Saha vadati, he says, mama pita trigarta desham gatavan asti. So my father went to the trigarta desham gatavan. Tavatu pratyaya. सर्वमपि सेनां सः नीतवान् अस्ति. सो आल् ही विल् ही ब्राट् सर्वमपि सेनां सः नीतवान् इस् सो ही ब्राट् आल् द सैन्यं
नीतवान् ही केरिड् आनीतवान् मीन्स्
ही केरिड् आल् द सेना
वित्
हिम्. अहम् एकः बालः एतान् अस्त्रकोविदान् ऐ एम् ए बाय् वित् आल् दि अस्त्रशस्त्र
What is pratirodham?
Pratirodham means I cannot resist, right? Because Astra Kovidan means they are all Pandita, or they are all skilled, right? With Astras.
Right.
Okay, skilled fighters. They are all Astra Kovida. So I cannot fight them or oppose them. Pratirodham.
Okay.
I cannot stop them, you can
stop them.
Right.
Bruhannade Nivartasva iti. Nivartasva.
So we can we'll go back.
Oh, okay. Go back. Okay.
Dhanyavada bhagini.
Dhanyavada.
Bhagini, pratirodham, is it like tumun? Satya?
Oh, bhagini.
Okay.
Rajashri bhagini, agrimam patatu. Brahannala arabhya.
Brahannala vadati, strinam puratah bahu jalpasi. Idanim katham yuddham na karoshi. Yadi na yudhyase tarhi sarve rahasishyanti iti. Ye kepi hasantu. Mama chinta nasti iti uktva uttarah stat avatirya adhavat. Brihannala bhagini
ratat avatirya.
Ratat avatirya adhavat. Brihannala tu yeshah dharmah na kshatriyah kadapi palayanam na karoti. Yuddhameva shreyah na palayanam iti tam anudhavati. Kesheshu grihnati cha tada uttarah vadati tubhyam shatam suvarna nanakani dadami ashta manin dadami uttamam ratham ashwan gajan cha dadami mam muncha iti. So Brihannala vadati strinam puratah bahu jalpasi. I'm not sure.
Talking a lot. Like,
so Brihannala
very talkative.
You're very talkative in front of the women. Idanim katham, how now, why are you how is it that you're not wanting to fight? Yadi na yudhyase tarhi sarvam prahasishyanti. That means if you do not fight, everybody will laugh at you.
Tarhi sarve prahasishyanti. Sarve prahasishyanti.
So laugh, right? Prahasishyanti.
Sarve tatra tarhi sarve. All of them will laugh. Yeah.
Laugh, yeah. So ye kopi, so then Uttara says, ye kepi hasantu, mama chintana. He says, let them laugh. I am not worried. Iti uktva uttaraha rathat avatirya adhavat. So he gets down from the chariot and he runs. Brihannala tu, say Brihannala tells him, this is not your dharma. Kshatriya does not ever run away. Palayanam is running away. Yuddhameva shreyaha na palayanam. So fighting the war is shreyas, not running away. Iti tam. So thus telling, he runs behind Uttara. Kesheshu grinati, he catches him by the hair. And then Uttara tells, tubhyam shatam sarva suvarna nanakani. So he gives, he says, I will give you 100 gold coins, and then I'll give you the 8 rare gems, ashtamanin dadami, the 8, the rare gems, uttamam ratham ashwan gajan. I'll give you chariot, horses, everything. Mam muncha, muncha is, save me, mam, or help me.
Leave me. Mam muncha, leave me alone. Just leave me.
Okay.
All release me. he carry he holds him right with his hair, so धन्यवाद भगिनि
धन्यवाद
सरस्वती भगिनी अग्रिमं मास्तु
मास्तु चिन्ता आवाम् अग्रे गच्छामः त्वं मम गच्छाव त्वं मम सारथिः भव अहं युद्धं करिष्यामि इति उक्त्वा बृहन्नला तं रथम् आरोपयति चिन्ता मास्तु डोण्ट् वरि आवां वि बोत् अग्रे विल् गो फार्वर्ड् गच्छामः विल् गो फार्वर्ड् त्वं मम सारथिः भव यू बिकम् मै ड्रैवर् आर् सारथिः अहं युद्धं करिष्यामि ऐ विल् डू द ऐ विल् फैट् युद्धं करिष्यामि ऐ विल् डू द फैटिङ्ग् इति उक्त्वा सेयिङ्ग् दस् आफ्टर् सेयिङ्ग् दिस् बृहन्नला that chariot, he got into that chariot. Aropayati. Should I read the next paragraph to Bhaini?
Patatu Bhagini.
Tataha tau shmashana bhumim gachataha. Tatra shami vrukshe पाण्डवैः पूर्वं रक्षितानि आयुधानि गृहीतः तदा उत्तरः जिज्ञास्य को भवान् इति बृहन्नलां पृच्छति बृहन्नला जिज्ञासय को भवान् इति बृहन्नलां पृच्छति बृहन्नला अहम् अर्जुनः युधिष्ठिरः भीमः नकुलः सहदेवमपि तव पितुः आश्रिताः एव सन्ति इति वदति तदा उत्तरः धैर्यं प्राप्नोति ततः फ्रम् देर् दे बोत् आफ् देम् went to the burial ground shmashana bhumim gachatah they went to the shmashana bhumi tatra shami vrukshe shami tree pandavahi purvam before by the pandavas rakshitani say the ayudani they have saved their weapons he took the weapons saved by the Pandavas on the Samivruk tree. Uttaraha he with curiosity ko bhavan ko is
kaha bhavan ko bhavan who are you
yeah kaha bhavan who are you he asked bruhannala pruchati bruhannalam pruchati then bruhannala says like this I am arjuna yudhishthira bhima nakula sahadeva also your fathers they have taken refuge in your ashitaha, right? In your asan.
Your father. They are
as refugees or taken refuge at your at your father.
Karmani prayogya.
Karmani prayogya. Tada uttaraha dayam. With that, then uttaraha dairyam, he became like brave, not brave.
he gets the courage because
courage. Yeah, he got the courage by hearing that. Yeah, after that.
Shami Vraksha ityukte banyan tree. Shami Vraksha.
No, that is another. It is a different kind of. It has a very very small leaves and then it looks like a.
It's like, peepal tree. It's in when is it? When we are doing Ayudha Puja and all that, after that, that tree's leaves, right, we use for giving people, isn't it the same tree?
Bahini, it has very very small leaves. It looks like the
tamarind leaf.
It looks like tamarind leaves, yeah.
Yes. It is called a Shami Vraksha only.
Yeah, it doesn't grow too tall. It looks like a very thin tree, actually. Yeah, the leaves are very, very small in size. Okay, Tata, should I complete this? Okay.
Usha Bhagini Patati. Agrimam, Samapet.
Bhagini. Tata, Pravrutte Yudhe. अर्जुनः भीष्मद्रोणकर्णादिसहितान् कौरवान् पराजित्य विराटराजस्य गोधनं रक्षति तावता पाण्डवानाम् अज्ञातवासः अपि समाप्तः भवति विराटराजः स्वपुत्र्याः उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति अत्र युद्धं भवति विराट कौरवसेनयोर्मध्ये अर्जुनः सर्वान् कौरवान् पराजित्य विजयं प्राप्नोति विराटराजस्य गोधनमपि रक्षति तत्समये एव तेषाम् अज्ञातवासः अन्तः भवति अज्ञातवासस्य अन्तः सम्भवति विराटराजः स्वपुत्र्या उत्तरायाः विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति अत्र पुत्रेण अभिमन्युना सह प्रयोगं तृतीया विभक्ति अभिमन्युना पुत्रेण इति अत्र विशेषणम् उभयोः अपि तृतीया विभक्ति उभयः अपि तृतीया विभक्तियुक्तः एवं विवाहम् अर्जुनस्य पुत्रेण अभिमन्युना सह कारयति इति
धन्यवादः अव्यानि सर्वे दत्तानि सन्ति परन्तु या वी हाव् टु मून् एण्ड् आल् दट् आल्सो यदि तर्हि सरलमेव इति अग्रे अपि यावत्तावत् सरलमेव चेत् नो चेत् अपि अस्ति खलु तत्र आसीत् इति मन्ये
Okay, so these are also some things that we have covered. Yadi tarhi. So grihe patantu sarve. Yadyapi tatapi. Do you remember, or should we go over this again? Fairly straightforward. Yadi tarhi. And then yavat tavat. Chet no chet. Let's do this. Read this at home, and if you have questions, we can do some exercises next week. Hmm? Is that okay with you?
Yes, Mohde.
I'm Mohde.
Oh, okay. So let's read another one here. And hopefully everyone can participate in this. So there are a lot of, this is like a natakam. So there are some characters. So let me tell you. Balakrishna Mahodaya, can you read the guru lines? And there are some called Prathama, Dvitiya, Tritiya, and all that. So Prathama, Anita Bhagini, Prathama, Bhumi Bhagini, Dvitiya, Hemangi Bhagini, Tritiya, Jaya Bhagini, the fourth, Panchamam Rajpi Bhagini, Shashtamam Vaibhavi Bhagini. Okay, so who is the guru? I forgot who it
is. Balakrishna Mahodaya, but Vinit Shishya.
And Sarve line, Subodh Mahodaya, if you can read Sarve and Shishya, whatever you can
read.
Aravam Karotu. Anita Bhagini Patatu. You set the stage for us.
Okay. Kasya chit kuroho ashramah. गुरुः उन्नतस्थाने उपविश्य ध्यानमग्नः अस्ति. दशशिष्याः प्रविशन्ति.
किञ्चित् वदतु. Did you get?
आम् महोदय. कस्यचित् गुरोः आश्रम. इट् इस् सम् गुरुस् आश्रम. गुरुः उन्नतस्थाने उपविश्य ध्यानमग्नः अस्ति. गुरुः is like sitting in a sitting on a kind of like dais or a stage or something. Upavishya, this is again Yavanta. Upavishya dhyana magnaha asti. He is doing meditation or like dhyana. Then dasha shishyaha pravishanti. Ten shishyas enter.
Enter. Uttama. Shishyaha.
Acharya, namo namaha.
Guruhu, netre unmilya, priya shishyaha, sarve agataha kim?
Aam guru, vayam sarvepi agataha.
Samichinam shishyaha, adhya, anadhyayanam अस्ति भवतां पाठः नास्ति.
सत्यं वा?
आम्, परन्तु अन्यद् एकं कार्यं सूचयामि.
किं तत् गुरो?
वदामि, सावधानं शृण्वन्तु। पार्श्वस्थे ग्रामे अद्य रथोत्सवः प्रचलति, भवन्तः सर्वे तत्र गत्वा रथोत्सवं दृष्ट्वा सायङ्काले प्रत्यागच्छन्तु।
एकनिमिषं, सो फार् सो गुड्, ऐ होप् सरलमेव, होप्फुलि एव्रिबडि अण्डर्स्टुड् सो फार्।
आं महोदय,
अग्रे सरामः। तृतीय,
अहोभाग्यं, महान् सन्तोषः, वयं सर्वे इदानीम् एव गच्छामः।
गच्छामः, गच्छामः,
परन्तु बहु जागरूकतया गन्तव्यं, यतः अहं भवतां बुद्धिमत्तां जानामि।
वयं बहु जागरूकाः भवामः गुरो।
भवतु, सर्वे मिलित्वा एव गच्छन्तु।
तथैव अस्तु गुरो।
स्वागतं, तथापि एतेषां मन्दमतीनां विषये इतोपि मम विश्वासः नास्ति, अतः एवं करोमि। सर्वे पङ्क्तिशः तिष्ठन्तु।
अत्र स्वगतम् मीन्स् ही इस् लैक् थिङ्किङ्ग् टु हिम्सेल्फ्, स्वगतं, सो एण्ड् देन् प्रकाशः इत्युक्ते वदति, गुरुः वदति, सो ही स्पीकिङ्ग् अलौड्। सर्वे पङ्क्तिशः तिष्ठन्तु, एव्रिबडि स्टाण्ड् इन् अ लैन्। अग्रे, शिष्याः तिष्ठन्ति, गुरुः गणयति, गुरुः वदति,
एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव दश, पश्यन्तु भवन्तः दशजनाः सन्ति, मध्ये मध्ये परिशीलयन्तु सर्वे आगताः वा कोऽपि च्युतः वा इति।
अवश्यं परिशीलयामः गुरो, वयं गच्छामः।
शुभं भवतु, गुरुः गच्छति, सन्तोषेण नृत्यतः अन्यस्याम् इति गच्छन्ति।
शिष्याः सन्तोषेण नृत्यन्तः, अन्य मीन्स् हेपिली दे आर्
हेपी।
सर्वे शीघ्रम् आगच्छन्तु, नो चेत् विलम्बः भवति।
आगताः, भोः आगताः,
वयं सर्वेपि स्मः किल।
स्मः, कः संशयः?
परन्तु मित्राणि, वयम् इदानीम् एव एकां नदीं तीर्त्वा अग्रे आगतवन्तः, तत्र सर्वेपि नदीं तीर्णवन्तः वा इति मम संशयः।
ममापि सः एव संशयः।
अतः एव गुरुः उक्तवान् अस्ति, मध्ये मध्ये सर्वे सन्ति वा इति परिशीलयन्तु इति।
सत्यम्, दशजनाः अपि स्मः वा इति इदानीम् एव परिशीलयामः।
मित्राणि, भवन्तः सर्वे पङ्क्तिरूपेण तिष्ठन्तु, अहं गणयामि, सर्वे तिष्ठन्ति, इदानीं गणयामि, एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव
सत्यं खलु दशमः कुत्र गतः
भोः भवान् गणनां सम्यक् न जानाति आगच्छतु अहं गणयामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव सत्यमेव खलु नवजनाः एव सन्ति
तर्हि दशमः कः सः कुत्र गतः
अत्र एव स्यात्
अत्र एव स्यात्
एतेषु
एव स्यात् एतेषु दशमः कः दशमः कः
ओके सो पत्तिकः उषा भगिनी पठतु पत्तिकः इत्युक्ते somebody who's going by some passer by
मत्तिकः प्रविश्य भोः कः कोलाहलः का समस्या भवताम्
पञ्चम
भोः गुरोः भोः गुरोः आदेशानुसारं वयं दशजनाः रथोत्सवार्थं प्रस्थिताः इदानीं पश्यामः नवजना एव स्मः हा हन्त उच्चैः रोदितु
शरद् कथम् एवं वदति एषः मनसा एव सर्वान् गणयति प्रकाश भोः सर्वे सन्ति खलु
नहि नहि पश्यतु अहमेव गणयित्वा दर्शयामि एकं द्वे त्रीणि चत्वारि पञ्च षट् सप्त अष्ट नव पश्यतु नवजनाः एव स्मः दशमः कुत्र गतः
मित्र भवानेव दशमः यः दशमस्य अन्वेषणं करोति सर्वे निष्कम्पाः तिष्ठन्ति निरूपकः नेपथ्ये वदति
भवती एव वदतु निरूपकः इत्युक्ते लैक् अ वाय्स् ओवर् यु नो इन् द बेक्ग्रौण्ड् सम्बडी इस् अनौन्सिङ्ग् अस्
मित्राणि एष एव लोकस्य व्यवहारः एवमेव वयम् आत्मनः अन्वेषणं कुर्वन्तः भवामः विषयः देहः इन्द्रियाणि प्राणाः मनः बुद्धिः अहङ्कारः चित्तम् अज्ञानम् इत्येतेषु अन्यतमः एव आत्मा स्यात् इति चिन्तयन्तः वयं तत्र एव तस्य अन्वेषणं कुर्मः परन्तु वयं न जानीमः यत् यः अन्वेषणं करोति सः एव आत्मा सः एव परं ब्रह्म पटाक्ष धन्यवादः
धन्यवादः सर्वेभ्यः पटाक्षेपः इत्युक्ते द कर्टन् इस् कमिङ्ग् डौन् समथिङ्ग् लैक् दट् Okay, so read this. We'll look over the details of this in next class. Hopefully everybody got this. What you're searching for is really inside you. This is what the Sankshep Rupena.
Mahudya, the last but one paragraph, that there is a word Nepatya.
Ek minute. एकनिमिषम्
निरूपकः
सर्वे निष्कम् द लास्ट् बट् वन् पथिकः हसन् सेकेण्ड् लैन् निष्कम्पाः दट् वाट् डस् दट् मीन् अण्ड्
सर्वे निष्कम्पाः इत्युक्ते वितौट् मूविङ्ग् दे आर् आल् स्टाण्डिङ्ग् स्टिल् निरूपकः नेपथ्ये वदति नेपथ्ये इस् अगेन् लैक् बिहैण्ड् द सीन् वाय्स् समथिङ्ग् लैक्
ओके ओके धन्यवादः.
ओके गृहे पठन्तु एकवारं एण्ड् देन् वील् गो फार् एनी एक्स्प्लेनेशन्स् इफ् नीड् so this week most of the homework will be to like at least read and understand. I will send the details, and if you can do some of these exercises for that yadi tarhi yavat tavat and chetno chet, just so that you get same. Once you write, you know, it'll stick with you. So okay, we are at time. So okay, prarthanam uktva samapayamaha. Om sarve bhavantu sukhinah, sarve santu niramayah, sarve bhadrani pashyantu, ma kaschid dukkha bhag bhavet. Om shanti 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 hi. Dhanyavada sarvebhya, shubharatri.
Dhanyavada
shubharatri.
Dhanyavada.